ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्थमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् ॐ महागणाधिपतये नमः। गणनायकाष्टकम् एकदन्तं महाकायं तप्तकाञ्चनसन्निभं लम्बोदरं विशालाक्षं वन्देहं गणनायकं मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनं बालेन्दुशकलं मौलौ वन्देहं गणनायकं चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितं कामरूपधरं देवं वन्देहं गणनायकम् गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितं पाशाङ्कुशधरं देवं वन्देहं गणनायकं मूषकोत्तममारुह्य देवासुरमहाहवे योद्धुकामं महावीर्यं वन्देहं गणनायकं यक्षकिन्नरगन्धर्वसिद्धविद्याधरैः सदा स्तूयमानं महाबाहुं वन्देहं गणनायकम् अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितं भक्तप्रियं मदोन्मत्तं वन्देहं गणनायकं सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितं सर्वसिद्धिप्रदातारं वन्देहं गणनायकम् गणाष्टकमिदं पुण्यं यः पठेत् सततं नरः सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् इति श्रीगणनायकाष्टकम्।